सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं नूतनं सुभाषितं श्रावयामि. विद्यानामनरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न हि धनं विद्या विहीनः पशुः. एतत् एतत् एकं नूतनं सुभाषितं भर्तृहरेः सुभाषितं. विद्यायाः प्रयोजनं किम् इति प्रश्नः सर्वेषां मनसि आगच्छति एव. इत्युक्ते विद्या किमर्थम् इति प्रश्नः सर्वदा उदेति. तस्य उत्तरम् एव एतस्य सुभाषितम्. अस्मिन् सुभाषिते भर्तृहरिः वदति विद्यायाः प्रयोजनानि अनेकानि. सुभाषितस्य अन्ते सः वदति विद्याविहीनः पशुः. यस्य पार्श्वे विद्या नास्ति सः पशुः इव चरति अथवा पशुः इव व्यवहरति तथा वदति. अनन्तरं गतसप्ताहे वयं सर्वे मिलित्वा एषः सः एषा सा एतत् तत् इति षट् सर्वनामपदानां विषये वयं सर्वे मिलित्वा किञ्चित् ज्ञातवन्तः. अनन्तरं कः का किं त्रीणि प्रश्नवाचकपदानां विषये अपि सम्यक् चिन्तनम् अभवत्. अत्र गतसप्ताहे अहं गृहपाठं प्रेषितवती. सर्वे कृतवन्तः वा? गृहपाठं किं भवतां पार्श्वे गृहपाठम् अस्ति गृहपाठः अस्ति वा? नास्ति चेत् सर्वे गतमङ्गलवासरे अहम् एकं वर्णचित्रं प्रेषितवती ईमेल् माध्यमेन. वर्णचित्रम् इत्युक्ते कलर् पिक्चर्. सर्वेषां पार्श्वे तत् वर्णचित्रं स्यात्. ऐ रिक्वेस्ट् यू टु कीप् दट् कलर् पिक्चर् इन् फ्रण्ट् आफ़् यू. वी आर् गोयिङ्ग् टु वर्क् आन् दट् नौ. ईमेल् माध्यमेन प्रेषितवती. महोदय भवतः पार्श्वे महोदय
किं तिथिः अभवत्?
गृहपाठरूपेण एकं वर्णचित्रं प्रेषितवती.
गीता नमस्ते.
नमस्ते भगिनि. सर्वेषां पार्श्वे वर्णचित्रमस्ति वा? स्थापयन्तु, पुरतः स्थापयन्तु. तदुपयुज्य एव वयम् अधुना किञ्चित् पठामः. शोभा भगिनि, भवत्याः पार्श्वे वर्णचित्रमस्ति वा?
ऐ एम् ऑन् माय सेल् फोन् भगिनि, सारि. But I remember.
You remember. Suchitra Bhagini, Bhavtyaha Parshve Astiva. Varna Chitram Asti. Bhagini. Bhavtyaha Parshve Astiva.
Yes, Bhagini, I have it in front of me.
उत्तमम्. अधुना वयं किं कुर्मः इत्युक्ते वर्णचित्रं दृष्ट्वा किञ्चित् ज्ञास्यामः. अत्र वर्णचित्रस्य प्रतिकृतिः अस्ति चेत् सर्वे पश्यन्तु. भगिनी, भवती एव वर्णचित्रं दृष्ट्वा वदतु. अस्मिन् वर्णचित्रे अत्र उपरि एका शीर्षिका अस्ति. शीर्षिका, शीर्षिका इत्युक्ते हेडिङ्ग्. भगिनि, शीर्षिका का?
चित्रस्य
उत्तमं महोदय. विद्यालयसम्बन्धीनि पदानि, तदेव विद्यालयसम्बन्धीनि पदानि, तदेव शीर्षिका. अस्मिन् अत्र एतत् पदं पश्यन्तु, विद्यालयसम्बन्धीनि पदानि इति पदमस्ति. एतत् एकं दीर्घं पदम् इत्युक्ते अत्र त्रीणि पदानि योजयित्वा लिखितमस्ति. विद्या, आलय, सम्बन्धीनि, त्रीणि पदानि योजयित्वा एकस्मिन् एव पदे, अत्र एकमेव पदम् इव भाति.
भगिनि,
इट् लुक्स् लैक्,
एक्स्क्यूस् मी, विच् पेज् इस् दिस् इन् अभ्यासपुस्तकं?
भगिनि, इट् इस् नाट् इन् अभ्यासपुस्तकम्. ऐ हेव् सेण्ट् अनदर् करपत्रम्.
Oh, I see. Okay.
I request you all to look into the homework and to do the homework. And as part of the homework, I sent it last week.
January 10th. That's January.
Every week after the class is over, I used to send homework, and part of homework, I sent this picture. अत्र विद्यालयसम्बन्धीनि पदानि इति पदमस्ति. अत्र एतत् पदम् एकं पदम् इव भाति, परन्तु अत्र त्रीणि पदानि योजितानि. त्रीणि पदानि योजयित्वा लिखितमस्ति. विद्या, आलय, सम्बन्धीनि, अत्र त्रीणि पदानि सन्ति. तदेव संस्कृतभाषायाः वैशिष्ट्यम् अपि च सौलभ्यम्. अनेकानि पदानि योजयित्वा एकं समस्तं पदं निर्मातुं शक्नुमः. तथा एव वयं सर्वे जानीमः साष्टाङ्गदण्डप्रणामः, प्रणामं. तस्मिन् स अष्ट अङ्गदण्डप्रणाम, तथा पञ्च पदानि सन्ति तस्मिन्. तथा अनेकपदानि योजयित्वा एकमेव पदम् इव समस्तपदं निर्मातुं शक्नुमः संस्कृतभाषायां. तदेव भाषायाः वैशिष्ट्यम् अपि च सौलभ्यम्. तदेव भाषायाः सौलभ्यम् अपि. अद्य वयं किं कुर्मः? अत्र विलम्बेन केन के के आगतवन्तः? नाम उचितम्. Can you please announce your name?
Geeta
Bhagini.
Geeta, namaste.
Raghupati Acharya Mahodaya, mute karotu. Bhavatah Durvanyam bahu dhani hasti. Atra Ashachari, Asha Bhagini asti va? भगिनी, भवती अपि म्यूट् करोतु. अत्र इफ् देर् इस् एनी बेक्ग्रौण्ड् नाय्स्, ऐ रिक्वेस्ट् यू टु म्यूट् युवर् सेल्फ्. अधुना विद्यालयसम्बन्धीनि पदानि इति करपत्रं पश्यामः. अत्र अधुना गणनां कुर्मः. सतीश् महोदय, भवान् करोति वा? अत्र अस्मिन् पुटे कति पदानि सन्ति?
कति? कक्षया, दीर्घोत्पीठिका, दीर्घपीठिका, उत्पीठिका, आसन्दः, स्यूतः, पुस्तकं, लेखनी, बालिका बालः छत्रम्
उत्तमम् आहत्य कति पदानि सन्ति
एकादश
एकादश पदानि गणनां करोतु अत्र संख्या एकं भवान् जानाति वा
द्वे त्रि चत्वारि पञ्च षष्ठ
षट् महोदय प्रथमं एकं पुनः पुनः वदतु
एकः
एकम् एकम्
एकं द्वे त्रीणि
न महोदय स्त्रीलिङ्गे तिस्रः त्रीणि साधारणतया नपुंसकलिङ्गे वदामः
चत्वारि
चत्वारि
चत्वारि पञ्च षट् सप्त षट् सप्त अष्ट नवं दशम्
नव दश अहं वदामि पुनः एकवारं वदामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश अत्र अत्र एकादश वस्तूनि सन्ति अथवा पदानि सन्ति अनन्तरं भवान् एव वदतु अत्र कति पदानि पुंलिङ्गे सन्ति कति स्त्रीलिङ्गे सन्ति कति नपुंसकलिङ्गे
स्यूतः स्यूतः पुलिङ्ग बालः पुलिङ्ग लिङ्ग सन्ति
स्यूतः
स्यूतः बालः पुलिङ्ग पुलिङ्ग सन्ति स्तः स्यूतः एण्ड् बालः पुलिङ्ग स्तः नपुंसकलिङ्ग पुस्तकं छत्रं नपुंसकलिङ्ग स्त्रीलिङ्ग कक्षा दीर्घोत्पीठिका दीर्घपीठिका उत्पीठिका असन्दः तु पुलिङ्ग अस्ति अस्ति का लेखनी लेखनी स्त्रीलिङ्ग अस्ति बालिका स्त्रीलिङ्ग अस्ति
उत्तमम् उत्तमं तथा एव अत्र कक्ष्या दीर्घोत्पीठिका दीर्घपीठिका उत्पीठिका बालिका लेखनी एतानि स्त्रीलिङ्गपदानि आसन्दः बालः स्यूतः पुंलिङ्गपदानि कक्ष्या अपि स्त्रीलिङ्गपदं छत्रम् अनन्तरं पुस्तकं नपुंसकलिङ्गपदानि अत्र एतानि सर्वाणि पदानि अपि नामपदानि अपि च प्रथमाविभक्तौ सन्ति एकवचने सन्ति तथा साधारणतया वयं पदरूपं दृष्ट्वा पदस्य रूपं दृष्ट्वा पदस्य लिङ्गं किं वचनं किं विभक्तिः का इति ज्ञातुं शक्नुमः तत् ज्ञातव्यम् एव वि नीड् टु नो टु विच् जनरल् इट् बिलाङ्ग् टु विच् टेन् केस् इट् बिलाङ्ग्स् टु विच् नम्बर् नम्बर् मीन्स् सिङ्गुलर् नम्बर् अथवा ड्युवेल् नम्बर् आर् प्लूरल् नम्बर् पदस्य लिङ्गं किं वचनं किं विभक्तिः का इति ज्ञातव्यम् इति एकः मुख्यबिन्दुः इट्स् अन् इम्पार्टेण्ट् पायिण्ट् अनन्तरं वदामि यदि वयं या कापि पाठशालां गच्छामश्चेत् तत्र कक्ष्यां कक्षायां कानि कानि वस्तूनि सन्ति पाठशालायां पाठशालायाः कक्ष्यां द्रष्टुं गच्छामश्चेत् तत्र एतानि वस्तूनि सर्वाणि अपि वयं द्रष्टुं शक्नुमः
आं भगिनि
अत्र स्यूतः, लेखनी, अङ्कनी, मापिका, छत्रम् एतानि वस्तूनि छात्राणां कृते अत्यावश्यकानि. छात्राः तेषाम् उपयोगं कुर्वन्ति. अनन्तरं कक्षायां वयं अन्यानि वस्तूनि किं किं पश्य कानि कानि वस्तूनि पश्यामः. अत्र कक्षायां किं दृश्यते? What do we find in a school?
कृष्णफलकं.
कृष्णफलकम् उत्तमम्.
उत्पीठिका.
आसन्दः.
उत्तमं. वदतु भगिनि.
आसन्दः. फर् दीर्घपीठिका, दीर्घपीठिके.
अत्र भगिनि, अत्र पीठिका एकम् एकं
सारि भगिनि, दीर्घपीठिकाः नो,
निदानिका भगिनि, नाट् निदानिका, विण्डो, वातायनं.
वातायनं उत्तमं. उत्तमं. अत्र अत्र एव पश्यामः. अत्र साधारणतया कक्षायां किं दृश्यते चेत् तत्र कक्षायां दीर्घोत्पीठिकाः सन्ति, दीर्घपीठिकाः सन्ति, उत्पीठिका अस्ति, आसन्दाः सन्ति, अपि च बालकाः बालिकाः स्यूताः. तदेव तत्र वयं पश्यामः पाठशालायाम्. अत्र पश्यन्तु, दीर्घोत्पीठिका, दीर्घपीठिका इति पदद्वयमस्ति. तत्रापि दीर्घोत्पीठिका इति पदे पदद्वयमस्ति, दीर्घ उत्पीठिका. एतादृशपदानि वयं पश्यामश्चेत् वयं समस्तपदम् इति वदामः. तस्मिन् पदद्वयम् अस्ति, दीर्घोत्पीठिका इत्यस्मिन् पदे पदद्वयं, दीर्घ अपि च उत्पीठिका, तथा एव दीर्घपीठिका, तस्मिन्नपि पदद्वयमस्ति, समस्तपदम् इति वदामः. अनन्तरम् अत्र एकं पदमस्ति, कक्ष्या. साधारणतया कक्ष्या इति पदस्य उच्चारणं साधारणतया सम्यक् भवेत्. कक्ष्या, सम्यक्तया उच्चारणीयं. क्षा, तत्र कक्ष्या इत्यस्मिन् पदे क्ष इति अक्षरमस्ति, संयुक्ताक्षरम् इति वदामः. क्ष इत्यस्मिन् अक्षरे त्रयः वर्णाः सन्ति, ककारः अस्ति, षकारः अस्ति, अकारः अस्ति. तस्मिन् क्ष इत्यस्मिन् ककारः, षकारः, अकारः, त्रयः वर्णाः सन्ति एकस्मिन् एव अक्षरे. तदर्थं वयं संयुक्ताक्षरम् इति वदामः. अनन्तरम् अत्र वदतु भगिनि.
वन् डौट्, कक्षा, ओके, सो सिङ्गल्
भगिनि, कक्ष्या यकारः अपि अस्ति.
Yeah, but what I'm asking is doubt, if it is, the general word is kaksha.
Atre eva pashyate bhagini, kaka, aham kim padami chet, kshakare, kshakha ityasmin akshare, kakarah, shakarah asti, parantu atra kakshya, ichukte, kakarah, shakarah, kshaka, क्ष इत्यस्मिन् वर्णे अस्ति, अनन्तरं यकारः अपि अस्ति, या, कक्ष्या.
सो ऐ, ओके, सो ऐ केन् ऐ आल्सो से लैक् यु नो, कक्षा, कक्षे, कक्षाः, इस् दट् आल्सो अलौड्?
कक्ष्या एकवचनं, कक्ष्ये, कक्ष्या आकारान्तस्त्रीलिङ्गपदं, कक्ष्ये द्विवचनं, कक्ष्याः बहुवचनम्.
So is it kakshaha ya? You can also say that, or you should only say kakshyaha.
Kakshyaha bahuvachanam.
Okay. Thank you, Bhagavan.
Kakshya ekavachanam. Kakshye dvivachanam. Kakshyaha yadha mahila mahile mahilaha. Bhashayam ekavachanam dvivachanam bahuvachanam. Asti. इत्युक्ते नामपदेषु एकवचनं रूपम् अस्ति, द्विवचनरूपं बहुवचनरूपमपि अस्ति. तथा अत्र कक्षा इत्यस्मिन् तत्र क्ष इति अक्षरमस्ति, तस्मिन् ककारः षकारः द्वे वर्णे स्तः. अनन्तरम् अत्र अस्मिन् पुटे एकम् एकं पदं स्वीकृत्य तस्य पुरतः एकं सर्वनामपदं योजयित्वा वयं सर्वनामपदेन सह वाक्यरचनां कुर्मः अधुना. अत्र एकादशवस्तूनि सन्ति, एकम् एकं पदं स्वीकृत्य वाक्यानि रचयामः, तथा त्रयस्त्रिंशत् वाक्यानि रचयितुं शक्नुमः. त्रयस्त्रिंशत् इत्युक्ते 33 सेण्टेन्सेस्. वि केन् क्रियेट् 33 सेण्टेन्सेस्. ओके, आरम्भं कुर्मः. सुचित्रा भगिनी, भवती करोतु. कक्ष्या इति पदम् उपयुज्य तस्य पुरतः सर्वनामपदं योजयित्वा.
किं कक्ष्याः? संस्कृतं च हिन्दी कक्ष्याः.
भगिनी भगिनी, केवलं केवलं स्त्रीलिङ्गे सर्वनामपदं किम्?
स्त्रीलिङ्गसर्वनामपदं दीर्घो पीठिका, दीर्घपीठिका, उत्पीठिका, लेखनी, बालिकाः.
भगिनी, अत्र भवती किम् उक्तवती इत्युक्ते, वाट् यू सेड् इस् अत्र वाट् आर् द स्त्रीलिङ्ग फेमिनिन् जेण्डर् वर्ड्स्, दट्स् वाट् यू टोल्ड् मी. बट् वाट् ऐ एम् आस्किङ्ग् इस् I want you to join the pronoun in front of the noun and create a sentence. So far, we have learnt pronouns also.
Mm-hmm. Okay, should I pick anything, or you want me to go with the first kakshya?
Kakshya. We'll go in an order.
Okay.
Kakshya.
Okay. Kim kakshya, because it is plural, Bhagini, should I say, like, you know, what?
Bhagini, Bhagini. Atra kakshya ekavachana roopam.
किं कक्ष्या? संस्कृतं कक्ष्या.
संस्कृतकक्ष्या, परन्तु भवती न अवगतवती. इट् लुक्स् लैक् यु डिण्ट् अण्डर्स्टाण्ड्. ऐ डू इट् फर् यू. द फस्ट् वन् कः कः कर्तुमिच्छति महोदय? भवान्
तत् कक्ष्या.
पुनः चिन्तयति.
तत् कक्ष्या.
तत् किम्? I explained it to you. Tat kim? When should we use tat kim? If you don't know the gender of the particular word, you are allowed to say tat kim. Parantu, atra bhavati janati eva kaksha iti akaranta strilinga padam. Ataha bhavati janati eva.
Yeshaha kim? एषाः कक्षाः, कक्ष्याः.
पुनः चिन्तयतु भगिनी.
सोरि सोरि, एषा ओके सा, रैट्? सो एष, वाट् इस् दिस्? दिस् इस् क्लास्, केन् ऐ से दट्? एषाः किम्? एषाः कक्षाय.
अहं वदामि, अहं वदामि, भवती भवती शृणोतु. एषा कक्ष्या, एकं वाक्यम्, एषा कक्ष्या. प्रश्नं पृच्छामि, एषा का?
एषा कक्ष्या.
एषा कक्ष्या. यदि समीपे कक्षा समीपे अस्ति चेत् एषा कक्ष्या इति वदामः. यदि कक्ष्या दूरे अस्ति चेत् सा कक्ष्या. सा का? सा कक्ष्या. अत्र एषा सा पदद्वयं स्त्रीलिङ्गे तस्य उपयोगः भवति. एषा सा स्त्रीलिङ्गसर्वनामपदानि. का इति प्रश्नवाचकपदम्. एषा का? पुत्रं वदतु. वाट् इस् दिस्? कक्ष्याः. तत्तु असमीचीनम्. लिसन्, कक्ष्याः इति पदं बहुवचने अस्ति, परन्तु अत्र कक्ष्या एकवचनं. दट् मीन्स् द क्वश्चन् इस् इन् बिकास् यू केन् सी ओन्ली वन् कक्ष्या हियर्.
ओके ओके, ऐ गाट् इट्. ओके,
कक्ष्याः इस् बहुवचनं.
ओके,
पुनः वदामि, कक्ष्या इति पदम् आकारान्तस्त्रीलिङ्गपदम्. एकवचने कक्ष्या, द्विवचने कक्ष्ये, बहुवचने कक्ष्याः. तथा वदामः. उत्तमं भगिनि. अनन्तरं शोभा भगिनी, भवती करोति वा द्वितीयम्?
आं भगिनि. दीर्घ उत् पीठिका, दीर्घोत्पीठिका
योजयतु.
एषा
का?
एषा दीर्घोत्पीठिका.
ओके, यदि दूरे अस्ति चेत्?
सा दीर्घोत्पीठिका.
प्रश्नं वद, प्रश्नं पृच्छतु.
सा का?
उत्तरमपि भवती एव ददातु.
सा दीर्घोत्पीठिका.
उत्तमं. तृतीयमपि करोतु.
तृतीयं? दीर्घपीठिका. दीर्घपीठिका.
एषा का?
एषा का? एषा दीर्घपीठिका. सा का? सा दीर्घपीठिका.
उत्तमं. का दीर्घपीठिका?
एषा दीर्घपीठिका. सा दीर्घपीठिका.
उत्तमं.
प्रश्नः अस्ति,
वदतु महोदय.
किम् अन्तरं दीर्घोत्पीठिका, दीर्घपीठिका? दीर्घोत्पीठिका उच्चतर अस्ति. किं किम् अन्तरं?
भेदः अस्ति. तत्र पश्यतु, चित्रं पश्यतु. तत्र तत्र अहं वदामि, अहम् अनन्तरं वदामि. भेदः अस्ति तयोर्मध्ये. दीर्घोत्पीठिका दीर्घपीठिका, भेदः अस्ति वा नास्ति वा? तत्र चित्रं पश्यतु, वदतु भगिनि.
भेदमस्ति.
भेदः अस्ति.
भेदः अस्ति. उत्पीठिका पीठिका. उत्पीठिका डेस्क् अस्ति.
अनन्तरम् उत्पीठिका इति पदमपि उपयुज्य, तस्य पुरतः सर्वनामपदानि उपयुज्य त्रीणि वाक्यानि रचयतु भगिनि, करोतु.
सारी भगिनि, आर् यु आस्किङ्ग् मी?
यु ओन्लि.
सो द नेक्स्ट् वन्. ओके, उत्पीठिका. उत्पीठिका अगेन्स्ट् स्त्रीलिङ्ग
भवति. आकारान्त स्त्रीलिङ्गपदम्.
स्त्रीलिङ्गपदम्
एकवचने अस्ति.
सा एकवचनम् अस्ति. सा उत्पीठिका. एषा उत्पीठिका. का उत्पीठिका? एषा उत्पीठिका. सा उत्पीठिका. बहुवचनम् उत्पीठिकाः अस्ति. अस्ति वा भगिनी?
अस्ति अस्ति. बहुवचनम् अत्र पश्यतु भगिनी. इदानीं पर्यन्तं वयम् एकवचने एव वाक्यानि रचयामः, परन्तु भवती बहुवचनवाक्यं रचयितुम् इच्छति चेत् अहं वदामि. अत्र उत्पीठिका इति पदम् एकवचने अस्ति, तस्य बहुवचनरूपम् उत्पीठिकाः.
उत्पीठिकाः.
यदि प्रश्नं पृच्छामश्चेत् ताः काः? यदि बह्व्यः इत्युक्ते मेनि,
बह्व्यः
बह्व्यः उत्पीठिकाः सन्ति. इफ् देर् आर् मेनि डेस्क् लैक् देट् देन् यु आर् सपोस् टु से एताः काः, एताः उत्पीठिकाः. ताः काः?
ताः उत्पीठिकाः.
ताः उत्पीठिकाः तथा बहुवचने वक्तव्यं. परन्तु इदानीं पर्यन्तं वयं केवलम् एकवचने एव अत्र अभ्यासं कुर्मः. अतः केवलम् एकवचने एषा का, एषा उत्पीठिका. यदि उत्पीठिका अस्माकं समीपे अस्ति चेत् एषा का इति वदामः. यदि उत्पीठिका दूरे अस्ति चेत् सा का, सा उत्पीठिका इति वदामः. उत्तमं भगिनी. वीणा भगिनी, धन्यवादः भगिनी. वीणा, वीणा भगिनी, वीणा भाटिया अस्ति वा भगिनि? ओ अस्तु. रघुपति आचार्यमहोदय, रघुपति आचार्य महोदय, भवान् वदति वा?
हलो, एकं निमिषम्, एकं निमिषम्. एषः कः? एषः आसन्दः.
कः आसन्दः?
एषः आसन्दः.
सः कः? कः आसन्दः? यदि आसन्दः अस्माकं समीपे अस्ति चेत् एषः आसन्दः, यदि आसन्दः दूरे अस्ति चेत् सः आसन्दः इति वदामः. अनन्तरं स्यूतः अपि करोतु महोदय. स्यूतः एषः कः? स्यूतमुद्दिश्य
वदामः. सः कः? सः स्यूतः.
कः स्यूतः?
सः स्यूतः.
उत्तमम्, उत्तमं. पुस्तकम् उद्दिश्य अहं पृच्छामि, एतत् किम्?
एतत् पुस्तकम्.
किं पुस्तकम्?
तत् पुस्तकम्.
तत् पुस्तकम् अथवा एतत् पुस्तकं. यदि शृणोतु, यदि अस्माकं पार्श्वे बहूनि पुस्तकानि सन्ति, इफ् यु हेव् सो मेनि बुक्स् इन् फ्रण्ट् आफ् यू अण्ड् यु आर् पायिण्टिङ्ग् टु ए स्पेसिफिक् वन्, देन् यु आर् सपोस् टु से एतत् किम्? उत्तम उत्तरं किं भवति?
एतत् पुस्तकम्.
किं पुस्तकम्?
एतत् पुस्तकम्.
उत्तमम्, उत्तमम्. यदि भवतः पार्श्वे रामायणमस्ति, भारतमस्ति, अनन्तरम् अन्यानि पुस्तकानि अपि सन्ति, तदा भवान् एकं पुस्तकम् उद्दिश्य वक्तुमिच्छति चेत् तदा एतत् पुस्तकम्, एतत् पुस्तकम् अहं पठामि, अद्य एतत् पुस्तकं पठामि, श्वः अन्यं पुस्तकं पठामि, एतत् पुस्तकम्. अत्र एतत् तत् एतत् पदद्वयं विशेषणरूपेण अत्र तस्य उपयोगः भवति. वि आर् यूसिङ्ग् एतत् अण्ड् तत् as adjectives, though they are pronouns. Kim pustakam, kim pustakam iti vadamaschet, etat pustakam. Kim artham tadha, tat pustakam bhavataha parshve asti. Pustakam dure asti chet, tat pustakam patami, etat na, tadha vadamaha. Anantaram, mohade bhavane vakarotu lekhani.
सा का? सा लेखनी. क्षम्यतां. सा का? सा लेखनी.
सतीश् महोदय
महोदय
न न महोदय when your turn comes please answer let him explain महोदय रघुपति आचार्य महोदय वदतु
सा का सा लेखनी एषा का एषा लेखनी
का लेखनी
एषा लेखनी या या सा लेखनी
उत्तमं लेखनी इति पदम् ईकारान्त स्त्रीलिङ्गपदं भवान् जानाति एव ऐ थिङ्क् यु नो दिस् लेखनी इति पदम् ईकारान्त स्त्रीलिङ्गपदम् अनन्तरं बालिका तदपि करोतु
सा का सा बालिका एषा का एषा बालिका
का बालिका
एषा बालिका
एषा बालिका सा बालिका न यु आर् पायिण्टिङ्ग् टु ए गर्ल् हू इस् क्लोज़र् टु यु एषा बालिका
एषा बालिका
सा बालिका न
ओके ओके
सो यु आर् वेरि स्पेसिफिक् अबौट् विच् वन् यु आर् टाकिङ्ग् अबौट् एषा बालिका अनन्तरं बालः बालः इति पदम् उपयुज्य अपि त्रीणि वाक्यानि रचयतु
एषः कः एषः बालः सः कः सः बालः
कः बालः
एषः बालः
उत्तमम् अनन्तरं छत्रं बालः इति पदम् अकारान्त पुंलिङ्गपदम् छत्रम् इति पदम् उपयुज्य अपि वदतु
तत् किं तत् छत्रम् एतत् किम् एतत् छत्रम्
किं छत्रम्
एतत् छत्रम्
एतत् छत्रम् इत्युक्ते भवतः पार्श्वे बहूनि छत्राणि भवतः पार्श्वे बहूनि छत्राणि सन्ति तदर्थं परन्तु भवान् एकमेव छत्रम् इच्छति एतत् छत्रमेव इच्छति
विशेषणं छत्रम्
एतत् छत्रं दट् मीन्स् यु आर् पायिण्टिङ्ग् टु ए वन् स्पेसिफिक् वन् देन् ओन्लि यु विल् से एतत् छत्रं बिकास् इट्स् क्लोस् टु यु तथा इदानीं पर्यन्तं वयं विद्यालयसम्बन्धीनि पदानि जानीमः अनन्तरम् अहं किं करोमि इत्युक्ते एतानि पदानि उपयुज्य कानिचन वाक्यानि नूतनवाक्यानि रचयामः अत्र भवन्तः कर्तुमिच्छन्ति चेत् तत् समीचीनं नो चेत् केवलं शृण्वन्तु अत्र कक्ष्या इति एकं पदमस्ति कक्ष्या इति पदम् उपयुज्य एकं वाक्यं रचयन्तु कः वक्तुमिच्छति कक्ष्या कक्ष्या इत्युक्ते किं भवन्तः जानन्ति एव यु नो वाट् इस् कक्ष्या ऐ रिक्वेस्ट् यू टु यु भवती कर्तुमिच्छति वा भगिनि
आं भगिनि छात्रा पठनार्थं कक्ष्याम् आगच्छन्ति
उत्तमं कक्ष्याम् आगच्छन्ति कक्ष्या इति पदं द्वितीया विभक्तौ अस्ति तत्र छात्राः पठनार्थं कक्ष्याम् आगच्छन्ति भवती एकं वाक्यम् उक्तवती अहम् अन्यानि वाक्यानि कानिचन वदामि अस्माकं कक्ष्यायाः नाम किम् अस्माकं कक्ष्यायाः नाम भाषावर्गः अवर् द नेम् आफ् अवर् क्लास् इस् भाषावर्ग अस्माकं कक्ष्यायाः नाम भाषावर्गः अधुना अधुना इत्युक्ते नौ अस्माकं कक्षायां कति छात्राः सन्ति? अस्माकं कक्षायाम् अधुना 10 छात्राः सन्ति. तथा कोऽपि अन्यत् वाक्यं वक्तुमिच्छति वा? यूसिङ्ग् द वर्ड् कक्षा. सतीश् महोदय, प्रयत्नं करोतु. एषा कक्षा सरलवाक्यं, लघुवाक्यं, समीचीनं वाक्यम्, उत्तमं. परन्तु अन्यत् वाक्यम्,
एषा कक्षायां नानाविधानि उपकरण नानाविधानि उपकरणानि सन्ति.
अत्र पश्यतु, कक्षायां कक्षायां नानाविधानि उपकरणानि सन्ति. तस्य पुरतः सर्वनामपदमस्ति.
एषां कक्षायाम्
अत्र एषाम् इति पदम् अशुद्धं पदम्. किमर्थं कक्ष्या इति स्त्रीलिङ्गपदम्? कक्ष्या इति पदस्य सप्तमी रूपं कक्ष्यायां. तस्य सर्वनामपदमपि सप्तमी विभक्तौ एव वक्तव्यम्. सो बिकास् यु आर् यूसिङ्ग् द स्त्रीलिङ्गपदं, द प्रोनौन् मस्ट् बी इन् सप्तमी विभक्ति. अत्र वाक्यं किं भवति? एतस्यां कक्ष्यायां नानाविधानि उपकरणानि सन्ति.
धन्यवादः.
कक्ष्यायां नानाविधानि उपकरणानि सन्ति. एकं वाक्यं यदि भवान् पुरतः सर्वनामम् अपि योजयित्वा वाक्यं रचयितुम् इच्छति चेत् एतस्यां कक्ष्यायां नानाविधानि उपकरणानि सन्ति तथा वदामः. अनन्तरम् आसन्दः. आसन्दः इति पदं स्वीकृत्य अन्यानि वाक्यानि रचयामः. कः वक्तुमिच्छति?
भगिनि, एकः प्रश्नः अस्ति. कक्ष्या पदम् इस् ओन्लि फार् डिनोटिङ्ग् द फिसिकल् क्लास् रूम् आर् यु केन् से युवर् क्लास् इस् वेरि नैस् वेरि गुड् इन् देट् सेन्स् आल्सो केन् यूस् द कक्ष्या आर् यु हेव् टु यूस् वर्गः.
वर्ग अपि च पर्यायवाचकशब्दमेव वर्गः अथवा कक्ष्या.
तव कक्ष्यायाः तव कक्ष्यायाः बहु समीचीनम् अस्ति.
तव इति न तव इति पदस्य उपयोगं न कुर्मः अत्र. भवतः अथवा भवत्याः
भवत्याः
भवतः शृणोतु भगिनि, भवतः अथवा भवत्याः. यदि पुरुषः अस्ति चेत् भवतः नाम किम् इति वदामः. तथा महिला अस्ति चेत् भवत्याः इति वदामः. तथा एव अत्रापि भवतः कक्ष्या सम्यक् अस्ति, भवत्याः कक्ष्या उत्तमा अस्ति. भवतः कक्षा समीचीना अस्ति. किमर्थं तथा? कक्षा स्त्रीलिङ्गपदं, तदर्थं विशेषणम् अपि स्त्रीलिङ्गे
भवेत्.
स्त्रीलिङ्गे भवेत् कक्षा समीचीना. शृणोतु भगिनि, कक्षा समीचीना, कक्षा उत्तमा,
समीचीना
उत्तमा अस्ति.
वै यु केनाट् यूस् तव?
वदामि. अत्र संस्कृतभाषायां यु in English you say you, but that is second person,
in a respectful way it is bhavatyah.
Uttamam, uttamam. When you wanted to say in a respectful way, you're supposed to use bhavatah, bhavatyah. Parantu tava iti sadharanatya navadamah.
Dhanyavadah.
Respectful way of saying is bhavatah, bhavatyah. Anantram asandah iti padam upayujya ekam vakyam vadantu kopi nasti chet aham vadami shrunvantu. Pashyantu aham kanichana vakyani vadami asandah iti padam upayujya aham asandah ityukte chair bhavantah jananti eva aham asande upavishami aham आसन्दे उपविशामि. अनन्तरं कक्षायां कति आसन्दाः सन्ति. हौ मेनि चेयर्स् आर् देर् इन् दिस् क्लास्. भवन्तः सर्वे शृणोतु भगिनि, भवन्तः सर्वे अपि आसन्दे उपविश्य पठन्तः सन्ति. यु आर् आल् सिटिङ्ग् इन् द चेर् एण्ड् लर्निङ्ग्. भवन्तः सर्वे अपि आसन्दे उपविश्य पठन्तः सन्ति इति अहं मन्ये. ऐ एम् थिङ्किङ्ग् दट् यु आर् आल् सिटिङ्ग् इन् ए चेर् अण्ड् स्टडियिङ्ग्. एषः नूतन आसन्दः वा? इस् इट् ए न्यू चेर्? एषः नूतन आसन्दः वा इति तथा अन्यानि वाक्यानि अपि रचयितुं शक्नुमः. अनन्तरं छत्रमिति पदम् उपयुज्य कः कर्तुमिच्छति वाक्यम्?
अद्य वर्षः अद्य वर्षा
वदतु भगिनि.
अद्य वर्षा भवति. छत्रं छत्रं स्वीकरोतु.
स्वीकरोतु. उत्तमम्, उत्तमं, तदेव उत्तममेव. छत्रं किमर्थम् इत्युक्ते
छत्रं इस् अम्ब्रेला.
अम्ब्रेला. छत्रं किमर्थम् इत्युक्ते बहिः वृष्टिः अस्ति. वृष्टिः इत्युक्ते रैन्. रघुपतिमहोदय कृपया म्यूट् करोतु, बहु ध्वनिः अस्ति. बहिः वृष्टिः अस्ति, परन्तु बहिः गन्तव्यं. तदा वयं किं कुर्मः? तदा वयं छत्रं गृहीत्वा बहिः गन्तुं शक्नुमः. इट् इस् रेन् औट्सैड् बट् यु स्टिल् नीड् टु गो, देन् यु विल् टेक् एन् अम्ब्रेला अण्ड् यु विल् गो. तदा छत्रं गृहीत्वा बहिः गन्तुं शक्नुमः. अनन्तरम् अत्र एकं पदमस्ति, दीर्घोत्पीठिका इति पदम् उपयुज्य अन्यानि वाक्यानि रचयामः. कः वदति? दीर्घोत्पीठिका अस्मिन्नेव चित्रे. सुचित्रा भगिनी भवती करोति वा?
एषा दीर्घोपीठिका
अत्र भगिनी अत्र चित्रं पश्यतु, चित्रं दृष्ट्वा वदतु, चित्रं दृष्ट्वा एकं वाक्यं.
कति दीर्घोपीटिका एषा कक्ष्याः कति दीर्घोपीटिका अस्ति सन्ति
सन्ति ओके पुनः 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 प्रयत्नं करोतु
ओके एषा कक्ष्या
एषा कक्ष्या एषा कक्ष्या एकं सरलवाक्यम्
ओके
एषा
कक्ष्या कति दीर्घोपीटिका सन्ति
उत्तमम् अहं समीकरोमि ऐ एम् ट्रैङ्ग् टु करेक्ट् अत्र भवती किं वक्तुमिच्छति चेत् अत्र एतस्यां कक्ष्यायां कति दीर्घोत्पीठिकाः सन्ति इन् दिस् क्लास् हौ मेनि लाङ्ग् बेञ्चस् आर् देर् एतस्यां कक्ष्यायां कति दीर्घोत्पीठिकाः सन्ति उत्तमम् उत्तमं भगिनि अहम् एकम्
Bhagini, I just have one small doubt. You know, in the beginning of the class, you explained kaksha and kakshya. Can you do that in English, please?
Class.
You know, you said like, you know, it is akaranta, pulling, then, you know, we also have this, you know, I'm just confused between kaksha, when it just ends with kaksha, and how it transforms into kakshya.
Okay, Srinath Bhagini, I'll tell you now. Actually, my intention is to make you pronounce in the right way, Kakshya, that is the right way to pronounce this word. That's all, nothing more than that. Kakshya, it's not Kaksha. Tatra, Yakara Hashruyate. You are supposed to pronounce Yakara, Yakaram also. Kakshya, that's all.
That's kakaram, all. Okay.
Kakaram, shakaram, yakaram. Kaksha, ashuddham padam. You are not supposed to say kaksha.
Okay. So that is just only...
That's all. My intention is to...
Okay.
Kevalam, uchcharanam, samikaromi.
Okay. Thank you, Bhagini. I thought, okay.
Uttama. अनन्तरम् अहम् एकं वाक्यं वदामि दीर्घोत्पीठिका साधारणतया यदि वयं पाठशालां गच्छामश्चेत् तत्र छात्राः किं कुर्वन्ति छात्राः तेषां पुस्तकानि अपि च वस्तूनि सर्वाणि अपि दीर्घोत्पीठिकायां स्थापयित्वा ते पठितुम् उद्युक्ताः भवन्ति दिल् कीप् आल् देर् बुक्स् एण्ड् अदर् थिङ्ग्स् आन् दिस् दीर्घोत्पीठिका एण्ड् दे विल् स्टडि अनन्तरं दीर्घपीठिका अस्ति दीर्घपीठिका इति पदम् उपयुज्य एकं वाक्यं वदामि दीर्घपीठिकायां छात्राः उपविशन्ति दे सिट् आन् दिस् दीर्घपीठिका सत्यं किल एम् ऐ रैट्
आं भगिनि
दीर्घपीठिकायां छात्राः उपविशन्ति अनन्तरम् अत्र उत्पीठिका अस्ति उत्पीठिका इति पदम् उपयुज्य एकं वाक्यं रचयन्तु कः वदति उत्पीठिका अत्र डेस्क्
अध्यापिका उत्पीठिका ओके डौट् अध्यापिका उत्पीठिका उपविशति
वा
यूसिङ्ग् not upavishyati, that's sitting. So far...
Adhyapika, bhavati janati. Pumlinge vadamaschat, adhyapakaha. Strilinge bhavati vaktumichyati, ataha adhyapika iti vadati. Samyakeva. Adhyapika, utpitikayaha upari.
वस्तूनि
स्थापयित्वा
ओके सो टु पुट् थिङ्ग्स् आन् द उत्पीठिका स्थापयित्वा ओके
अत्र स्थापयति एकं वाक्यं
हा स्थापयति इस् वाट् ऐ वास् ट्रै टु से ओके
उत्तमम् उपनः वदतु तदेव वाक्यं
हा अध्यापिका उत्पीठिकायां वस्तूनि स्थापयति
स्थापयति अत्र पश्यतु भगिनि उत्पीठिकायां स्थापयति इति वदामश्चेत् तत्तु अशुद्धं शिल्कीप् उत्पीठिकायाः उपरि
उत्पीठिकायाः उपरि ओके
आन् द डेस्क् आन् द डेस्क् यु वाण्टेड् से नाट् इन् रैट्
करेक्ट् करेक्ट्
अध्यापिका उत्पीठिकायाः उपरि
वस्तूनि स्थापयति
वस्तूनि स्थापयति अहं वदामि अध्यापकः उत्पीठिकायाः उपरि तस्य पुस्तकानि वा वस्तूनि वा स्थापयित्वा साधारणतया सः उत्थाय पाठं पाठयति द टीचर् आल्वेस् हिल् स्टाण्ड् रैट् ओन्लि हिल् कीप् द हिस् स्टफ् आन् द डेस्क्
To say, use, can it be said adhyapika, utpitika, yaha, utpitika, just utpitika, upayogam,
uttama, tadha karmaha, tadha api vakyam rajitam shakramaha, avati kim atra,
karoti, adhyapika, utpitika, उपयोगं करोति
उत्तमं तत्र किं किं कुर्मः इत्युक्ते यदि भवती उपयोगम् इति पदम् तस्य उपयोगं कर्तुम् इच्छति चेत् इफ् यु वाण्ट् टु यूस् द वर्ड् उपयोगं देन् द प्रीवियस् वर्ड् आल्वेस् शुड् बि इन् षष्ठी
ओके
इट् इस् द रूल्
ओके सो इट् वुड् बि उत्पीठिकायां
उत्पीठिकायाम् इति पदं सप्तमी विभक्तमि
ओके ओके
उत्पीठिकायाः
उत्पीठिकायाः ओके फर् उपयोगम्
उपयोगं तथा वाक्यं किं भवति अध्यापिका उत्पीठिकायाः उपयोगं करोति सम्यक् वा
आं भगिनि
भवती भवती एव वदतु तदेव वाक्यम्
अध्यापिका उत्पीठिकाः उपयोगं करोति
तत्र पश्यतु उत्पीठिकाः इत्युक्ते प्रथमाविभक्ति बहुवचनरूपं परन्तु अहं किम् उक्तवती वट् डिड् ऐ से उत्पीठिकायाः
ओके या उत्पीठ या अध्यापिका उत्पीठिकायाः उपयोगं करोति
उत्तमं धन्यवादः भगिनि अनन्तरं अनन्तरं
भगिनि प्रश्नः अस्ति इफ् यु डोण्ट् यूस् करोति अण्ड् यु यूस् ओन्लि वन् वर्ब् उपयोगं द वर्ड्स् वर्बल् फार्म् उपयुज्यते वट् इस् इट् वट् इस् दि वर्बल् फार्म् फार् उपयोगम्
अत्र पश्यन्तु यदि यदि उपयोगम् इति पदम् उपयोगम् इति पदम् उपयुज्य द वर्ड् उपयोगम् इफ् यु वाण्ट् टु यूस् द वर्ड् उपयोगं यु आर् सपोस् टु से द प्रीवियस् वर्ड् इन् षष्ठी
इन् षष्ठी विभक्ति
भगिनि
देर् इस् वन् मोर् वे आफ् सेयिङ्ग् दिस् रैट्
वदामि उत्पीठिका उत्पीठिकायाः उपयोगः भवति तदपि समीचीनम् अनन्तरं अनन्तरम् अत्र स्यूतः इति पदमस्ति स्यूतः एकं वाक्यं रचयन्तु कः वदति भूमा भगिनी कर्तुमिच्छति वा स्यूतः शीघ्रं कुर्मः स्यूतः इत्युक्ते अत्र बेग्
बेग्
किमर्थं किमर्थम्
अतः स्यूते विद्यालयवस्तूनि आनयति
इत्युक्ते बालकः स्यूते पुस्तकानि लेखनी अथवा मापिका छत्रं किमपि अङ्कनी सर्वाणि वस्तूनि तस्मिन् स्थापयित्वा तं स्यूतं नीत्वा पाठशालां प्रति गच्छति स्यूतम् आनयति स्यूतं नयति
नयति
अथवा स्यूतं नीत्वा पाठशालां प्रति गच्छति टेकिङ्ग् द बेग् हिल् गो टुवर्ड्स् स्कूल् अनन्तरं लेखनी इति पदमस्ति लेखन्या वयं किं कुर्मः लेखन्या लिखामः लेखन्या लिखामः किमपि पुस्तकम् अस्माकं पुस्तकस्य नाम किं कः वदति सतीश् महोदय अस्माकं पुस्तकस्य नाम अभ्यासपुस्तकं सत्यं किल अनन्तरम् अत्र बालिका अस्ति बालिका इति पदम् उपयुज्य एकं वाक्यं वदतु रघुपतिमहोदय भवान् वदतु महोदय
अस्मिन् कक्षायां कति बालिकाः सन्ति
अत्र पश्यतु महोदय अस्मिन् इति पदं पुंलिङ्गे वदामः परन्तु अत्र कक्षा इति पदं स्त्रीलिङ्गे अस्ति okay. कक्षायां सप्तमी विभक्तौ अस्ति अतः
अस्यां कक्षायां कति बालिकाः सन्ति
उत्तमम् अस्यां कक्षायां कति बालिकाः सन्ति अत्र बालिका अस्ति सा क्रीडन्ती इव दृश्यते शि लुक्स् लैक् शि इस् प्लेयिङ्ग् अनन्तरं बालकः बालकः अस्ति सः कथं दृश्यते हौ डस् हि लुक् लैक्
मम पार्श्वे तत् नास्ति
ओ नास्ति वा
नास्ति
अत्र चित्रे बालकः अस्ति सः बालकः पेटिकां धृत्वा विद्यालयं प्रति गच्छन् अस्ति पेटिकां धृत्वा विद्यालयं प्रति गच्छति गच्छन् अस्ति वदतु भगिनि
एषा बालिका कति कक्षा पठति कक्ष्या पठति एषा बालिका कति कक्षा पठति विच् क्लास् दिस् गर्ल् स्टडिङ्ग् इन् विच् क्लास्
कति कक्षा तद् नास्ति कस्मिन् कस्यां
कस्याम्
अनन्तरम् अत्र तथा एतानि सर्वाणि वस्तूनि एकत्र स्थापयामः चेत् वयं कक्षायाः वर्णनं कर्तुं शक्नुमः इन् दिस् वे वी केन् एक्स्प्लेन् हौ द स्कूल् सिनारियो विल् बि अत्र इदानीं पर्यन्तं वयं कक्षायाः वर्णनं कृतवन्तः अनन्तरम् अहं अद्य वयं कानिचन नूतनपदानि अपि ज्ञास्यामः शोभा भगिनी भवती वदतु अहम् अधुना वदामि श्रूयते वा श्रूयते वा
आं भगिनि अहं शृणोमि
अहं शृणोमि उत्तमं श्रूयते वा अनन्तरं अन्यत् प्रश्नः अन्यः प्रश्नः भवत्याः पार्श्वे पुस्तकमस्ति वा?
आम् मम पार्श्वे पुस्तकम् अस्ति.
उत्तमम्. अनन्तरं भवती सम्यक् गृहपाठं कृतवती वा?
आं भगिनि.
उत्तमम् उत्तमम् उत्तमम्. अनन्तरं भवत्याः आरोग्यं सम्यक् अस्ति वा?
आं भगिनि, मम आरोग्यं सम्यक् अस्ति.
इत्युक्ते समीचीनं नास्ति.
ओ मै गाड्.
अनन्तरं भूमा भगिनी, भवती अवगच्छति वा?
आं भगिनि, अवगच्छामि.
अहम् अवगच्छामि. उत्तमं. भवती पूर्वमेव संस्कृतं पठितवती वा?
आं भगिनि, पञ्चाशत् वर्षकाले, बिफोर् दट् इस् 50 इयर्स् बेक्.
ओके, अस्तु अस्तु अस्तु. अनन्तरम् इदानीं पर्यन्तं यत् मया उक्तं तत् स्पष्टं वा?
ऐ कुण्ट् केच् इट् न.
वाट् एवर् ऐ हव् टोल्ड् यू, इस् इट् क्लियर् फर् यू?
आम्
आम् स्पष्टम्
स्पष्टं
वक्तव्यम्
इति. केन् यू रिपीट् द सेण्टेन्स् प्लीस्?
इदानीं पर्यन्तं यत् मया उक्तं तत् स्पष्टं वा?
न, यत् मया उक्तं तत् स्पष्टं
वा? उत्तरं किं भवति? आम्, तत् स्पष्टम्. ओके, एतेषां प्रश्न इदानीं पर्यन्तम् अहं कानिचन प्रश्नान् पृष्टवती. एतेषां प्रश्नानाम् उत्तरं किम् इत्युक्ते आम् न इति अनयोः पदयोः मध्ये एकम् उपयुज्य वयम् उत्तरं वदामः. आम् न तयोः पदयोः उपयोगः कदा भवति? वाक्यरचनायाम् अनयोः पदयोः उपयोगं कथं कुर्मः? तदेव अद्यतननूतनविषयः. इत्युक्ते वेन् डु वि यूस् आम् अण्ड् न इन् अवर् कान्वर्सेशन्? देट् इस् अवर् न्यू टापिक् टुडे. आम् न. सर्वे अभ्यासपुस्तकं पश्यन्तु. अभ्यासपुस्तके चतुर्थपुटं प्रति गच्छेम. चतुर्थपुटं प्रति गच्छेम. अत्र कः पठति? अत्र सुचित्रा भगिनी, भवती करोति वा?
आम् आं भगिनि,
पठतु. अत्र चतुर्थपुटे षट् चित्राणि सन्ति.
विच् पेज् भगिनि? सोरि,
पेज् फोर्, चतुर्थपुटे
पेज् फोर्.
पेज् फोर्.
उदाहरणं दृष्ट्वा वाक्यानि लिखतु.
उत्तमं. तदेव सा एव सूचना. देट् इस् अवर् इन्स्ट्रक्षन्. उदाहरणं दृष्ट्वा वाक्यानि लिखतु. यदि भवन्तः जानन्ति चेत् वाक्यानि इति पदस्य एकवचनरूपं किम्?
वाक्यानि प्लुरल्, बहुवचनं.
वाक्यानि बहुवचनम्. अहं पृच्छामि एकवचनरूपं किम्?
वाक्यम्
एकवचनं. वाक्यं, वाक्ये, वाक्यानि. तथा एव अत्र उदाहरणम् इति पदमस्ति. उदाहरणम् इति पदम् एकवचने अस्ति. बहुवचनरूपं किम्?
उदाहरयानि.
पुनः
उदाहरयानि.
उदाहरणानि.
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 उत्तमम्. अत्र उदाहरणमिति पदं द्वितीयविभक्तौ अस्ति. अनन्तरं वाक्यस्य अन्ते क्रियापदमस्ति. क्रियापदं लिखतु, लिखति इति पदं क्रियापदम्, अपि च लोट्लकारे अस्ति. अत्र प्रथमं चित्रं, सा बालिका. द्वितीयं चित्रं
सः बालकः.
सः बालकः. तृतीयं
तत् द्वारं.
तद्वारं. चतुर्थं
सः सैनिकः.
न न सः सः वैद्यः.
सः वैद्यः, सोरि, ओके, सः वैद्यः.
सा
वृद्धः, वृद्धा.
सा वृद्धा. अन्तिमम्
एतत् यानं.
तत् यानं किमर्थं चेत् दूरे अस्ति. अत्र पश्यतु भगिनि, एषा बालिका, एषः बालकः, तत् द्वारं, सः वैद्यः, सा वृद्धा, तत् यानम्. एतानि वाक्यानि सर्वाणि अपि सरलवाक्यानि, लघुवाक्यानि. परन्तु अत्र वयं किं कुर्मः इत्युक्ते, केवलं वा इति पदं योजनेन तत् वाक्यं प्रश्नार्थकवाक्यं भवति. अवगच्छन्ति वा? अवगतं वा? अत्र केवलं वा इति पदस्य योजनेन तत् वाक्यं प्रश्नार्थकवाक्यं भवति. कथम्? अधुना पश्याम. सा बालिका वा? We are just adding the word va at the end of it. Just by simply adding the word va, you are making that sentence into a question sentence. Uttamam. Sa balika va? Tasya uttaram kim?
Sa balika.
Punah.
Sa balika.
Sa balika. द्वितीयं करोतु.
सः बालकः वा? आम्,
सः
बालकः.
तृतीयं
तत् एतत् द्वारं वा?
एतत् अथवा तत् द्वे अपि समीचीनं.
ओके, तत् द्वारं वा?
तद्वारं. उत्तमम्, उत्तमम्. अनन्तरं इदानीं पर्यन्तं कः न, कस्य क्रमः न आगतः? सो फार् ऐ एम् नाट् एबल् टु कीप् ट्राक् आफ् द नेम्. इफ् यु डिडिण्ट् गेट् युवर् टर्न् प्लीस् स्पीक्.
सः सैनिकः वा?
महोदय वदतु.
सः सैनिकः वा? न, सः सैनिकः न, सः वैद्यः.
उत्तमं. सः सैनिकः वा? सः अत्र कः दृश्यते? हुम् यु आर् सीयिङ्ग्?
सः वैद्यः.
सः वैद्यः. कथं ज्ञातवान् भवान्? हौ डिड् यु नो देट्?
तस्य स्कन्धे स्टेथोस्कोप् अस्ति.
स्टेथोस्कोप् अस्ति. वैपर्. उत्तमम्. इत्युक्ते संस्कृतभाषायां तस्य नाम अस्ति स्यन्दमापिनी.
स्यन्दमापिनी.
वदामि. स्यन्दमापिनी.
स्यन्दमापिनी. ओके.
तदपि ईकारान्तपदम्. स्यन्दमापिनी. सः कः इति अहं प्रश्नं पृच्छामि चेत् तत्र सः वैद्यः. किमर्थं? सः स्यन्दमापिनीं धृत्वा कार्यं करोति. हिस् वेरिङ्ग् ए स्टेथोस्कोप्. स्यन्दमापिनीं धृत्वा कार्यं करोति. सः वैद्यः इव दृश्यते. हि लुक्स् लैक् इस् अ डाक्टर्. सः वैद्यः इव
दृश्यते.
सः वैद्यः इव दृश्यते. सः वैद्यः. सः सैनिकः न. तदा सः सैनिकः वा इति प्रश्नं पृच्छामि चेत् तत्र उत्तरं किं भवति? न, सः सैनिकः न, सः वैद्यः. अनन्तरं करोतु महोदय.
सा युवती युवतिः वा? न, सा युवती युवतिः न, सा वृद्धा.
सा वृद्धा. अत्र सा कथं दृश्यते? हौ डस् शी लुक् लैक्?
सा वृद्धा इव दृश्यते. अतः सा वृद्धा
सा वृद्धा इव अस्ति. अतः सा वृद्धा एव. तत्र न, सा युवतिः न, सा वृद्धा. अत्र पश्यन्तु, युवतिः इति पदमस्ति. युवतिः इति पदस्य अन्ते विसर्गः अस्ति. परन्तु एतत् पदं ह्रस्व इकारान्त स्त्रीलिङ्गपदं. यथा मतिः इव, जस्ट् लैक् द वर्ड् मतिः. युवतिः, युवतिः इति पदं ह्रस्व इकारान्त स्त्रीलिङ्गपदं. बट् डोण्ट् गेट् कन्फ्यूस्ड्. फस्ट् यु नीड् टु नो द रूल्स्, बट् आल्वेस् द रूल्स् विल् चेञ्ज् अण्ड् मोर् अण्ड् मोर् एक्सेप्शन्स् विल् बि एडेड् टु द रूल्. युवतिः इति पदं मतिः इव ह्रस्व इकारान्त स्त्रीलिङ्गपदं. युवतिः.
सो भगिनि, दिस् नाट् युवति, इट् इस् युवतिः.
आम्, अत्र पश्यतु भगिनि, बिन्दुद्वयमस्ति पदस्य अन्ते. देर् आर् टु डाट्स्. दृश्यते वा? डाट्स् दृश्यते वा न वा?
दृश्यते. यस्,
पश्यामि
पश्यामि. बिन्दु,
बिन्दुद्वयं पदस्य अन्ते पश्यामि. पदस्य अन्ते बिन्दुद्वयं पश्यामि. परन्तु अत्र युवतिः इति पदं ह्रस्व इकारान्त स्त्रीलिङ्गपदं. या महिला यौवने अस्ति सा युवतिः. यदि पुरुषः यवने अस्ति चेत् किं वदामः? युवतिः. तस्य पुंलिङ्गे किं भवति?
युवत्याः.
युवत्तः.
युवकः.
नो, युवत्तः. युवत्तः.
न न भगिनि, अहं किं पृच्छामि? सा महिला यौवने अस्ति अतः युवतिः इति वदामः. परन्तु पुरुषः यौवने अस्ति चेत् युवकः.
युवकः. ओके.
युवतिः पुंलिङ्गे युवकः. तथा एव पुंलिङ्गे वैद्यः, स्त्रीलिङ्गे
वैद्या.
वैद्या. यदि महिला अस्ति चेत् वैद्या. वैद्याः न, वैद्या.
ओके, वैद्या.
पुरुषः अस्ति चेत् वैद्यः, महिला अस्ति चेत् वैद्या. अत्र चित्रं अन्तिमं करोतु भगिनी. अत्र चित्रं षष्ठं वाक्यं.
तत् चित्रं वा?
तच्चित्रं
वा? न, तच्चित्रं न. तत् लोकयानं.
तत् किं?
तत् लोकयानं.
तत् लोकयानं. लोकयानं. इदानीं पर्यन्तम् आम् न इति पद अनयोः पदयोः उपयोगं कृत्वा रिक्तस्थलानां पूरणं कृतवन्तः. अत्र एकः अन्यः अभ्यासः अपि अस्ति. तदपि आम् न इति उपयुज्य कानिचन वाक्यानि रचनीयमेव तत्रापि अत्र तदपि अद्य एव कुर्मः. अत्र उभागे ह्रस्व उभागे किम् अस्ति अत्र तदपि वयं पश्यामः अधुना. अत्र एषः अभ्यासः अपि कः करोति रघुपतिमहोदय, भवान् कर्तुम् इच्छति वा अत्र
किं करणीयं?
अत्र किं कर्तव्यम्? अत्र कर्तव्यं किं वदति पश्यतु महोदय. अत्र अस्माकं कर्तव्यं किम् इत्युक्ते शृणोतु. अत्र निर्मला बालिका युवतिः इति त्रयाणां पदानां मध्ये सम्बन्धः अस्ति. देर् इस् अ रिलेशन् बिट्वीन् दीस् त्री वर्ड्स् निर्मला बालिका युवतिः. एतेषां पदानां मध्ये अन्वयः इत्युक्ते सम्बन्धः अस्ति. अत्र अत्र वयं केवलं तिर्यक्रीत्या पठामः. तिर्यक्रीत्या इत्युक्ते हारिजेण्टलि. वि आर् सपोस् टु रीड् हारिजेण्टलि हियर्.
निर्मला बालिका अस्ति, युवतिः नास्ति. युवतिः न
उत्तमम्. अत्र बालिका इति पदस्य समीपे तत्र कोष्ठके एकं चिह्नम् अस्ति. बालिका तस्य समीपे एकं चिह्नं लिखितमस्ति. चिह्नं किं? तस्य अर्थः कः? चिह्नस्य अर्थः कः?
सा बालिका इति, निर्मला बालिका इति.
सा बालिका इति इत्युक्ते सत्यं.
सत्यं
सत्यं सा बालिका. साधु अथवा सत्यं, समीचीनं, शुद्धम्. अत्र साधु, सत्यं, शुद्धं, समीचीनम् एतानि पदानि पर्यायवाचकपदानि. देर् आल् सिनोनिम्स्. अनन्तरं युवतिः इति पदस्य समीपे अन्यत् चिह्नमस्ति. अशुद्धम्, असाधु, असमीचीनम्, असत्यम्. उत्तमं. तथा एव अत्र केवलं तिर्यक्रीत्या पठामश्चेदेव तत्र वयम् अवगन्तुं शक्नुमः. अधुना पदं पठतु महोदय.
रोहिणी वैद्य.
न न महोदय, अत्र उपरि रक्तवर्णैः लिखितैः लिखितं वाक्यमस्ति.
रोहिणी वैद्य वा
अत्र? न न, प्रथमतया सूचनां पठतु.
एतस्य कोष्टकस्य साहाय्येन वाक्यानि लिखतु.
एतस्य कोष्टकस्य साहाय्येन वाक्यानि लिखतु. अत्र एतस्य कोष्टकस्य पदद्वयं षष्टिविभक्तौ अस्ति. साहाय्येन
तृतीयविभक्ति.
उत्तमम्.
वाक्यानि बहुवचनं लिखतु लोट्लक.
अत्र एतस्य इति पदम् एषः इति पदस्य षष्टिरूपम्. एतस्य नाम किम् इत्यपि वदामः. वी आर् गोयिङ्ग् टु लर्न् अबौट् दिस् एतस्य इन् अवर् नेक्स्ट् चाप्टर्. एतस्य इति पदम् एषः इति पदस्य षष्टिरूपम्. अनन्तरं कोष्ठकस्य इति पदं तस्य प्रथमाविभक्तिरूपं कः वदति?
कोष्ठकः.
कोष्ठकम् आक्चुवल् नपुंसकलिङ्गपदं
बिकास् एतस्य
अत्र कोष्ठकम् इति पदं नपुंसकलिङ्गपदं, परन्तु नपुंसकलिङ्गपदानां कृते अपि च पुंलिङ्गपदानां कृते षष्टिविभक्तेः रूपं समानम्. फर् पुंलिङ्गपदानि फर् पुंलिङ्ग वर्ड्स् अण्ड् फर् नपुंसकलिङ्ग वर्ड्स् द षष्टिविभक्तिरूपम् इस् सेम्. कोष्ठकं कोष्ठकस्य षष्टिरूपम्. अधुना करोतु महोदय.
थर्ड् वन्
फस्ट् वन् उदाहरणं पठतु.
निर्मला बालिका वा? आम्, निर्मला बालिका. सा युवती न. रोहिणी वैद्या वा? न, रोहिणी वैद्या न, सा विद्यार्थिनी.
उदाहरणद्वयं दत्तम् अत्र. दिस् टु आर् गिवेन् एस् एक्साम्पल्स्. अत्र बालिका पदस्य पुंलिङ्गरूपं किं भवति? पुंलिङ्गं किं वदामः?
बालकः वा?
न न, वयं जानीमः निर्मला बालिका वा. केवलं पृच्छामि, बालिका पदस्य पदं पुंलिङ्गे वदामश्चेत् बालकः, तथा एव वैद्या इति पदं पुंलिङ्गे वदामश्चेत् वैद्यः. अत्र रोहिणी इति पदम् ईकारान्तस्त्रीलिङ्गपदं, तदर्थमेव अत्र वैद्या इति अस्ति. प्रथमं तृतीयं करोतु.
महेशः विद्यार्थी वा? आम्,
सः
महेशः. महेशः विद्यार्थी.
सः वैद्यः वा?
सः वैद्यः वा? न, सः वैद्यः न.
उत्तमम्, उत्तमं. शोभा भगिनी भवती करोतु.
अनन्तः शिक्षकः वा? अनन्तः शिक्षकः. अनन्तः न लिपिकारः.
सः लिपिकारः वा?
न, सः न लिपिकारः.
सः लिपिकारः न.
सः लिपिकारः न.
अनन्तः शिक्षकः, सः लिपिकारः न. अदे. अनन्तरं देवदत्तः कः अत्र? अन्य चतुर्थं देवदत्तः कः? सः किं करोति?
देवदत्तः न्यायवादी वा? न, देवदत्तः न्यायवादी न.
सः कः?
सः उत्तङ्काहः वा? आम्, सः उत्तङ्काहः.
अत्र पश्यतु, उट्टङ्ककः.
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 उट्टङ्ककः इत्युक्ते
सः
यः उट्टङ्कनं करोति. यः उट्टङ्कनं करोति सः उट्टङ्ककः. उट्टङ्कनं टैपिङ्ग्. लिपिकारः इति पदमस्ति. लिपिकारः इत्युक्ते यः कार्यालये केवलं लेखनकार्यं करोति.
रैटर्
सः एव. क्लर्क् आर् रैटर्. सः एव लिपिकारः. अत्र अनन्तरं नागराजः इति पदमस्ति. नागराजः कः? कोष्टकं दृष्ट्वा वदतु.
नारक्षकः
नागराजः आरक्षकः. नागराजः चित्रकारः सः आरक्षकः.
उत्तमं. नागराजः अहं पृच्छामि, नागराजः चित्रकारः वा?
न, नागराजः चित्रकारः न, सः आरक्षकः.
उत्तमम्, उत्तमम्. अत्र न्यायवादी इति पदमस्ति, अपि च विद्यार्थी इति पदमस्ति. विद्यार्थी इति पदं न्यायवादी पदद्वयमपि हलन्तपदे. विद्यार्थी इति पदस्य मूलरूपं, प्रातिपदिकं रूपं विद्यार्थिन्, नकारान्तपदं. न्यायवादी इति पदस्य प्रातिपदिकं रूपम् अथवा मूलरूपं न्यायवादिन्.
परन्तु
पुंलिङ्गं विद्यार्थी स्त्रीलिङ्गे किं भवति? भवानेव
न्यायवादिनी.
न्यायवादिनी. चित्रकारः तस्य स्त्रीलिङ्गे रूपं किम्?
चित्रकारी.
चित्रकारिणी.
चित्रकारिणी. ओके.
न्यायवादी न्यायवादिनी, चित्रकारः चित्रकारिणी. शिक्षकः पदस्य स्त्रीलिङ्गे किं वदामः?
शिक्षिका.
शिक्षिका. उत्तमम्. अत्र आरक्षकः इति पदमस्ति स्त्रीलिङ्गे.
आरक्षिका.
अहं चिन्तयामि आरक्षिका तथा. अत्र केवलं न्यायवादी विद्यार्थी पदद्वयं नकारान्त पदम्. अन्यानि अत्र केवलं अत्र महेशः, अनन्तः, देवदत्तः, नागराजः, वैद्यः, उट्टङ्ककः, आरक्षकः, लिपिकारः, एतानि चित्रकारः, एतानि सर्वाणि अपि अकारान्तपुंलिङ्गपदानि. आकारान्तस्त्रीलिङ्गपदानि कानि? आकारान्त.
निर्मला.
वैद्या. उत्तमम्. ईकारान्तस्त्रीलिङ्गपदानि कानि?
रोहिणी. विद्यार्थिनी.
रोहिणी विद्यार्थिनी. रोहिणी
विद्यार्थिनी.
अत्र अभ्यासपुस्तकस्य अग्रिमे पुटे एतदेव अभ्यासः, एषैव अभ्यासः अस्ति. केवलम् एषः, सः, एषा, सा, एतत्, तत् इति पदानि उपयुज्य वाक्यानि लेखनीयानि. अनन्तरं कः, का, किम् इति प्रश्नवाचकपदान् अपि उपयुज्य वाक्यानि लेखनीयानि. भवन्तः गृहपाठरूपेण तम् अभ्यासं कुर्वन्तु. इत्युक्ते पञ्चमे पुटे अभ्यासः सुलभः एव. भवन्तः सर्वे गृहपाठरूपेण तम् अभ्यासं कुर्वन्तु.
ओके.
अधुना कालातीतः अभवत्. अग्रिमे सप्ताहे पुनर्मिलामः. धन्यवादः. नमस्कारः.
धन्यवादः.
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 धन्यवादः.